एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। परह्यो रात्रितः जायमानया अविरल वृष्ट्या सह दुरापन्नेन भूस्खलनेन तनहु जनपदे दश जनाः मृताः जनद्वयम् विलुप्तम् च वर्तन्ते। तनहु जनपदस्य म्याग्दे ग्रामपालिकायाम् एकः, व्यासनगर पालिकायाम् चत्वारः, रिसिङ ग्रामपालिकायाम् पञ्च चेति कृत्वा दश जनाः अम्रियन्त इति तनहु स्थितः अस्माकम् संवाददाता किरण श्रेष्ठः ज्ञापयति। जलविप्लवस्य कारणेन द्वौ जनौ विलुप्तौ स्तः। तनहु जनपदस्य द्वादशत्वोऽपि अधिकेषु स्थानेषु जलविप्लव भूस्खलनाभ्यम् क्षतिः प्रापिता वर्तते। तनहु जनपदस्य विभिन्नेषु स्थानेषु भूस्खलनेन पूरणात् विलुप्तानाम् दशानाम् जनानाम् शवाः प्राप्ताः सन्ति। रविवासरतो दुरापन्नया भीषण वृष्ट्या गृहपूरणेन विलुप्तानाम् रिसिङ ग्रामपालिकायाः, व्यासनगरपालिकायाश्च द्वादशानाम् जनानाम् मध्ये दश जनानाम् शवाः ह्यः प्राप्ता इति जनपद प्रहरी कार्यालयेन ज्ञापितम् वर्तते। सप्तरी जनपदस्य तिलाठी कोइलाडी ग्रामपालिकायाः प्रथमवडा क्षेत्र स्थिते बेल्ली टोल स्थाने खाडो खोला नद्याम् दुरापन्नेन जल विप्लवेन पञ्चाशतोऽपि अधिकानि गृहाणि जलमग्नानि सन्ति। ह्यो दुरापन्नेन जल विप्लवेन बेल्ही टोल स्थानेन सह बेल्ही प्रवेश बिन्दोः आपणश्च जलमग्नो स्थिति प्रहरी ज्ञापयति। नद्या एकस्य पुरुषस्य सवोऽपि प्रवाह्य आनीतः इति च प्रहरी बोधयति। अस्मिन् वर्षे वर्षाकालस्य प्रारभणम् अनु देशस्य विभिन्नेषु स्थानेषु दुरापन्नैः जल विप्लव भूस्खलनाभ्यम् जलमग्नतया च पञ्चाशीतिः जनाः मृताः सन्तीति गृहमन्त्रालयेन ज्ञापितमस्ति। जल विप्लव भूस्खलनाभ्यम् जलमग्नतया च प्राप्तक्षतेः अस्य न्यूनीकरणस्य च विषयौ विमृष्टुम् गतदिने सिंहप्रासादे उपविष्टे राज्यव्यवस्था सुशासन समितेः उपवेशे गृहमन्त्री रामबहादुर थापा जल विप्लव भूस्खलनयोः जलमग्नतायाञ्च निपत्य अद्यावधि षट्चत्वारिंशत् विलुप्ताः, पञ्चाशत् जनाः आताः, चतुस्त्रिंशत् अधिक शते गृहेषु क्षतिश्च प्राप्ता स्थिति अज्ञापयत्। वर्षाकाल प्रारभणस्य पूर्वमेव प्राकृतिक विपदा महती क्षतिः प्राप्तेति कारणेन तत्प्रतिकर्तुम् योजनाबद्धरूपेण सर्वकारः अग्रे वर्धितोऽस्तीति गृहमन्त्री थापा अवोचत। गृहमन्त्री थापा भारतीय पक्षेण एकपक्षीयरूपेण सीमाक्षेत्रेषु मार्गरूपेण तटबन्धस्य निर्माणेन नेपाली भूमौ जलमग्नता वर्तते इति समस्पष्टयत। गृहमन्त्री थापा अवोचत् भारतेन सीमाक्षेत्रेषु हस्तक्षेपम् विधाय निर्मितानि तटबन्धनानि संरचनाश्च अपाकर्तुम् नेपाल सर्वकारेण प्रयासः विधीयमानः सन्नपि सार्थकः सम्भूतो नास्ति। प्रतिनिधिसभायाः राज्यव्यवस्था सुशासन समित्या जल विप्लव भूस्खलन जलमग्नताभिः विलुप्तान् जनान् तत्कालम् अन्वेष्टुम् उद्धर्तुम् च पीडितेभ्यः एकद्वारा प्रणाल्या सहायताम् वितर्तुम् च सर्वकाराय निर्देशनम् दत्तमस्ति। समितेः गतदिने सिंहप्रासादे उपविष्टेन उपवेशेन जल विप्लवेन प्रभावितेषु क्षेत्रेषु स्वच्छीकरणम् औषधानां व्यवस्थां च विधातुम् विपदः अनन्तरं सम्भाव्यायाः महामार्याः प्रसरणस्य निरोधनाय आवश्यक प्रबन्धनम् कर्तुम् विपदोः न्यूनीकरणस्य स्थायि समाधानम् अन्वेष्टुम् सहायता वितरण जलमग्नता क्षेत्रस्य सम्बद्धस्य स्थानीय स्तरस्य च माध्यमेन विपदो स्थापनं विधातुं च निर्दिष्टं वर्तते। प्रधानमन्त्री केपी शर्मा ओली गदति नेपालः ऋषिमुनीनां तपोभूमिः ज्ञानभूमिश्च अस्ति इत्यतः एव विश्वस्मिन् विश्वे प्रसिद्धो वर्तते। आदिकवेः भानुभक्त आचार्यस्य सप्ताधिक द्विशततम्यः जन्मजयन्त्याः अवसरे मदन भण्डारी कला साहित्य प्रतिष्ठानेन गतदिने प्रधानमन्त्री निवासे बालवाटार स्थाने आयोजिते कार्यक्रमे प्रधानमन्त्री ओली अस्माकं पूर्वजैः संयोजितस्य भाषा संस्कृत्योः सम्बन्धस्य पुनर्जागरणाय भानुभक्त आचार्येण महत्वपूर्ण योगदानं प्रदत्तमस्तीति अस्मरत। कार्यक्रमे नेपाल प्रज्ञा प्रतिष्ठानस्य कुलपति गंगाप्रसाद उप्रेती अवोचत् भाषिक एक तैव राष्ट्रियता सम्भवति। प्रतिष्ठानस्य उपकुलपति डाक्टर जगमान गुरुङ आविश्वम् प्रसृतानाम् नेपाली भाषिणाम् मध्ये भानुभक्त परिपथस्य निर्माणे बलम् प्रादात्। कार्यक्रमे राष्ट्रियसभा सांसदः कोमल ओली, गायिका लोचन भट्टराई, संचारकर्मी डाक्टर रत्नावली शर्मा च भानुभक्तीय रचना अगायन्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयेन गत विक्रमादिएन राष्ट्रिय प्रतिभा पुरस्कारेण विभिन्नः व्यक्तयः सम्मानिताः सन्ति। आदिकवे भानुभक्त आचार्यस्य जन्मजयन्ती अवसरे ह्यः मन्त्रालय समारोहम् आयोज्य विभिन्नानां विधानं स्रष्टारः प्रतिव्यक्ति लक्षैक रूप्यकाणां वित्तेन सह प्रमाणपत्रद्वारा गत विक्रम वर्षीयेण राष्ट्रिय प्रतिभा पुरस्कारेण सम्मानिताः। सम्मानितेषु संस्कृतौ काष्ठमण्डपस्य बुद्धिनारायण श्रेष्ठः, भाषा साहित्ययोः दयाराम श्रेष्ठ सम्भव, ललित कलायां श्यामलाल श्रेष्ठ, संगीत नाट्य विधायां सिराह जनपदस्य सत्यनारायण चौधरी च वर्तन्ते। समारोहे विभिन्नाः व्यक्तयः अन्यैः पुरस्कारैः सम्मानिताः। समारोहे संस्कृति पर्यटन नागरिकोड्डयन मन्त्री योगेश कुमार भट्टराई अवोचत्, भाषा संस्कृत्योर्माध्यमेन पर्यटन क्षेत्रस्य अभिवृद्धये आदिकवि भानुभक्त परिपथ निर्मास्यते। गतदिने अतिरिक्ताः 1,050 जनाः कोरोना मुक्ताः सन्तो गृहं प्रत्यावृताः सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापक डा जागेश्वर गौतमः गतदिने विभिन्नेषु स्थानेषु स्थितेभ्यः एकान्तवासेभ्यः 1,050 च जनैः कोरोनात स्वास्थ्यलाभ प्राप्तेः अनन्तरं नेपाले कोरोनामुक्तानाम् अद्यावधि संख्या 10,094,102 च प्राप्तास्तीति अज्ञापयत्। एवमेव गतदिने अतिरिक्तेषु 44,100 जनेषु कोरोना संक्रमणं पुष्टीभूतमस्ति। मन्त्रालयस्य अनुसारेण अद्यावधि नेपाले 16,545,900 जनाः कोरोना संक्रान्ताः अभवन् इति समाचारः।